ನಮಸ್ಸರ್ವೇಭ್ಯ. ಅದ್ಯ ಕೃದಂತವರ್ಗೆ ದಶಮಃ ಪಾಠ. ಜೂನ್ ಮಾಸಸ್ಯ ದಶಮಃ ದಿನಾಂಕ. ಅದ್ಯ ವಯಂ ಚತುರ್ಥಂ ಪ್ರತ್ಯಯಂ ತುಮುನ್ ಪ್ರತ್ಯಯಂ ಪಠಾಮಃ. ಪ್ರತ್ಯಯಸ್ಯ ಪರಿಚಯಂ ಪ್ರಾಪ್ಯ ಕುತ್ರ ಕುತ್ರ ಕಸ್ಮಿನ್ ಸಂದರ್ಭೇ ಅಯಂ ಪ್ರತ್ಯಯಃ ಪ್ರಯುಜ್ಯತೆ ಇತ್ಯಪಿ ಪಶ್ಯಾಮಃ. ಆದೌ ಮಂಗಲಂ ಯೋಂತಃ ಪ್ರವಿಶ್ಯ ಮಮಾಚಮಿಮಾಂ ಪ್ರಸುಪ್ತಾಂ ಸಂಜೀವಯತ್ಯಖಿಲ ಶಕ್ತಿಧರಸ್ವಧಾಮ್ನಾ ಅನ್ಯಾಂಶಹಸ್ತಚರಣಶ್ರವಣತ್ವದಾದೀನ್ ಪ್ರಾಣಾನ್ನಮೋ ಭಗವತೆ ಪುರುಷಾಯ ತುಭ್ಯಂ. ಗುರುರೇವ ಗತಿರ್ಗುರುಮೇವ ಭಜೇ ಗುರುಣೈವ ಸಹಾಸ್ಮಿ ನಮೋ ಗುರವೇ. ನ ಗುರೋಃ ಪರಮಂ ಶಿಶುರಸ್ಮಿ ಗುರೋರ್ಮತಿರಸ್ತಿ ಗುರೌ ಮಮ ಪಾಹಿ ಗುರೋ. ಏತಾವತ ಕಿಂ ಕಿಂ ಅಧೀತಂ ಇತಿ ಕಿಂಚಿತ್ ಪಶ್ಯಾಮಃ. ಕೃದಂತಾಃ ಧಾತೋಃ ಕೃತ್ ಪ್ರತ್ಯಯಸ್ಯ ಯೋಜನೇನ ಕೃದಂತ ಶಬ್ದಾಃ ನಿಷ್ಪಾದ್ಯಂತೆ. ಸರ್ವೇಪಿ ಕೃದಂತಾಃ ಪ್ರಾತಿಪದಿಕಾನಿ ಭವಂತಿ. ತೇಭ್ಯಃ ಸುಪ್ರತ್ಯಯಂ ಯೋಜಯಿತ್ವಾ ಸುಬಂತತ್ವೇನ ಪ್ರಯೋಗಃ ಕ್ರಿಯತೆ. ಕಿಮರ್ಥಂ ಕೃತ್ ಪ್ರತ್ಯಯಃ ಯೋಜ್ಯಂತೆ ಧಾತೋಃ? ಧಾತುನಾ ಕ್ರಿಯಾ ಬೋಧ್ಯತೆ. ಕ್ರಿಯಾ ಸಂಬದ್ಧಂ ಕಂಚಿದರ್ಥಂ ಕರ್ತ ಕರ್ಮ ಇತ್ಯಾದಿ ಯಂ ಕಮಪಿ ಅರ್ಥಂ ಬೋಧಯಿತುಂ ಕೃತ್ ಪ್ರತ್ಯಯಾನಾಂ ಯೋಜನಂ ಕ್ರಿಯತೆ. ತತ್ರ ಪ್ರಾಯಃ ಶತೋತ್ತರಂ ಚತ್ವಾರಿಂಶತ್ ಪ್ರತ್ಯಯಾಃ ಸಂತಿ ಕೃತ್ ಇತಿ ಸಮ್ಯಕಾಃ. ಸೊ ಕೃತ್ ಇಸ್ ಅ ನೇಮ್ ಗಿವನ್ ಟು ಅ ಸೆಟ್ ಆಫ್ ಪ್ರತ್ಯಯಸ್ ವಿಚ್ ಆರ್ ಎನ್ಲಿಸ್ಟೆಡ್ ಬೈ ಪಾಣಿನಿ. ಏತೇಷು ಪ್ರತ್ಯಯೇಷು ಕೇಚರ ಪ್ರತ್ಯಯಃ ಸಾಮಾನ್ಯ ಪ್ರತ್ಯಯಃ ಅರ್ಥಾತ್ ಸರ್ವೇಭ್ಯಃ ಧಾತುಭ್ಯಃ ಭವಂತಿ. ಕೇಚನ ಪ್ರತ್ಯಯಸ್ತು ವಿಶಿಷ್ಯ ಕೇಭ್ಯಶ್ಚಿದೇವ ಧಾತುಭ್ಯಃ ಭವಂತಿ. ಸೊ ಸಂ ಕೃತ್ ಪ್ರತ್ಯಯ ಆರ್ ಜನರಲ್ ಅಂಡ್ ದಟ್ ದೇ ಕ್ಯಾನ್ ಬಿ ಆಡೆಡ್ ಟು ಆಲ್ ಧಾತುಸ್, ವೆರಸ್ ಸಮ್ ಆರ್ ಸ್ಪೆಸಿಫಿಕ್ ಟು ಅ ಪರ್ಟಿಕ್ಯುಲರ್ ಸೆಟ್ ಆಫ್ ಧಾತುಸ್ ಆರ್ ಸಮಟೈಮ್ಸ್ ಈವನ್ ಅ ಸಿಂಗಲ್ ಧಾತು. ಸೊ ದೇ ಆರ್ ಆಲ್ ಸ್ಪೆಸಿಫಿಕ್ ಪ್ರತ್ಯಯ. ಅಸ್ಮಿನ್ ವರ್ಗೇ ತು ವಯಂ ಸಾಮಾನ್ಯ ಪ್ರತ್ಯಯಾನ್ ಪಶ್ಯಾಮಃ. ತ್ರಯಃ ಪ್ರತ್ಯಯಃ ಅಸ್ಮಾಭಿಃ ಅಧೀತಃ ಲ್ಯುಟ್ ಅನಿಯರ್ ತಥಾ ನುಲ್ ಇತ್ಯೇತೆ. ತತ್ರ ಪ್ರಯೋಗೇ ಲ್ಯುಟ್ ಪ್ರತ್ಯಯೇ ಅನ ಇತಿ ಶ್ರೂಯತೆ. ಅನಿಯರ್ ಪ್ರತ್ಯಯೇ ಅನೀಯ ಇತಿ. ನುಲ್ ಪ್ರತ್ಯಯೇ ತು ಅಕ ಇತಿ ಶ್ರೂಯತೆ. ಅತಃ ಪಠನಂ ಪಠನೀಯಂ ಪಾಠಕಃ ಇತಿ. ಏತೆ ತ್ರಯಃ ಪ್ರತ್ಯಯಃ ಅಸ್ಮಾಭಿಃ ವಿಸ್ತರೇಣ ಅಧೀತಃ. ಅತಃ ಪ್ರತ್ಯಯಸ್ಯ ಕಃ ಅರ್ಥಃ, ತಸ್ಯ ರೂಪಂ ಕಥಂ ಭವತಿ, ಪ್ರಯೋಗಃ ಕಥಂ ಕರಣೀಯಃ, ತೇನ ಸಹ ಪ್ರಯುಜ್ಯಮಾನಾನಾಂ ಅನ್ಯೇಷಾಂ ಶಬ್ದಾನಾಂ ಕರ್ತುಃ ಕಾ ವಿಭಕ್ತಿ ಭವತಿ, ಕರ್ಮಣಃ ಕಾ ವಿಭಕ್ತಿ ಭವತಿ ಇತ್ಯೇವಂ ಸರ್ವೇ ಅಂಶಾಃ ಏತೇಷಾಂ ತ್ರಯಾಣಾಂ ಪ್ರತ್ಯಯಾನಾಂ ಅಸ್ಮಾಭಿಃ ಅಧೀತಂ. ತತ್ರ ಅನ ಅಥವಾ ಲ್ಯುಟ್ ಪ್ರತ್ಯಯಃ ಭಾವಾರ್ಥಕಃ ಅರ್ಥಾತ್ ಕ್ರಿಯಾಂ ಬೋಧಯತಿ. ಅನೀಯ ಪ್ರತ್ಯಯಃ ವಿಧ್ಯರ್ಥಕಃ ಕರ್ಮವಾಚಕಃ ಪ್ರತ್ಯಯಃ ಪಾಠಃ ಪಠನೀಯಃ ಇತ್ಯಾದಿ. ಅಕ ಅಥವಾ ನುಲ್ ಪ್ರತ್ಯಯಸ್ತು ಕರ್ತೃವಾಚಕಃ ಪ್ರತ್ಯಯಃ. ಅದ್ಯ ತು ವಯಂ ಚತುರ್ಥಂ ಪ್ರತ್ಯಯಂ ಪಠಾಮಃ. ಸಹ ಪ್ರತ್ಯಯಃ ಅಸ್ತಿ ತುಮುನ್ ಪ್ರತ್ಯಯಃ, ಪ್ರಯೋಗೇ ತುಂ ಇತಿ ಶ್ರೂಯತೆ. ಅತ್ರಾದೌ ಏಕಂ ಶ್ಲೋಕಂ ಪಠಾಮಃ. ಪ್ರಸಿದ್ಧಃ ಶ್ಲೋಕಃ ಭಗವದ್ಗೀತಾಯಾಃ ಶ್ಲೋಕಃ. ಭಕ್ತ್ಯಾ ತ್ವನನ್ಯಯಾ ಶಕ್ಯಃ అహమేవం విధోర్జున జ్ఞాతుం ద్రష్టుం చ తత్వేన ప్రవేష్టుం చ పరంతప ఇతి గీతాయాం శ్రీకృష్ణ అర్జునం వదతి. విశ్వరూపం ప్రదర్శ్య సహ వదతి కథం తాదృశస్య దర్శనం భవతి అథవా కథం కృష్ణస్య ప్రాప్తి భవతి ఇతి. అహం ఏవం విధః ఈదృశః యథా మాం దృష్టవానసి తాదృశః అనన్యయా భక్త్యా శక్యః కథం తాదృశం పరమాత్మానం ప్రాప్తుం శక్యతే ఇతి చేత అనన్యయా భక్త్యా అనన్య సో నాట్ ఎనీబడీ ఎల్స్ సో భక్తి విచ్ ఇస్ డైరెక్టెడ్ టువర్డ్స్ ఓన్లీ లార్డ్ ఎ సింగిల్ మైండెడ్ డివోషన్ అనన్యయా భక్త్యా అహం ఏవం విధః జ్ఞాతుం ద్రష్టుం తత్వేన ప్రవేష్టుం చ శక్యః సో ఇట్ ఇస్ పాసిబుల్ టు నో మీ జ్ఞాతుం టు సీ మీ దట్ ఇస్ ద్రష్టుం తత్వేన జ్ఞాతుం ద్రష్టుం చ సో తత్వేన ఇస్ రియలీ యాజ్ హీ ఇస్ ఇన్ రియాలిటీ సో తత్వేన జ్ఞాతుం ద్రష్టుం ప్రవేష్టుం చ ఆల్సో టు ఎంటర్ మీ ఆర్ మర్జ్ ఇన్ మీ సో భక్త్యా త్వనన్యయా శక్యః అహమేవం విధోర్జున జ్ఞాతుం ద్రష్టుం చ తత్వేన ప్రవేష్టుం చ పరంతప అత్ర జ్ఞాతుం ద్రష్టుం ప్రవేష్టుం ఇతి త్రయః శబ్దాః తుమున్ ప్రత్యయాంతాః సో తుమున్ ఇస్ వన్ ఆఫ్ ద మోస్ట్ కామన్ ప్రత్యయస్ ద మోస్ట్ కామన్ కృదంతస్ యూస్డ్ ఇన్ ద లాంగ్వేజ్ సర్వత్ర తుమునః ప్రయోగః భవతి. అనేకం సుభాషితం పఠామః. ఉపకర్తుం ప్రియం వక్తుం కర్తుం స్నేహమకృత్రిమం సుజనానాం స్వభావోయం కేనేందుః శిశిరీకృతః. ఉపకర్తుం టు హెల్ప్ అదర్స్, ప్రియం వక్తుం టు స్పీక్ వెల్, టు స్పీక్ ఇన్ అన్ ఎండియరింగ్ వే, స్నేహం అకృత్రిమం స్నేహం కర్తుం అండ్ టు షో ఫ్రెండ్షిప్ విచ్ ఇస్ అకృత్రిమ దట్ ఈస్ న్యాచురల్ విచ్ ఇస్ నాట్ ఆర్టిఫిషియల్ కృత్రిమ ఎత్ విశిష్య క్రియతే సో దట్ విచ్ ఇస్ క్రియేటెడ్ ఆర్టిఫిషియలీ ఈస్ కృత్రిమ అకృత్రిమ టు షో అ న్యాచురల్ ఫ్రెండ్షిప్. ఉపకర్తుం ప్రియం వక్తుం కర్తుం స్నేహం అకృత్రిమం అయం సుజనానాం స్వభావః so this is the nature of good people. Okay, so it does not need to be taught by somebody else. Anyena pathaniyam nasti swabhavatah eva sajjanaah upakaram kurvanti priyam vadanti akatrimam sneham kurvanti kenenduhu shishirikatah induhu chandraha కేన శిశిరీకృత చంద్ర అత్యంతం శీతల భవతి సో చంద్ర ఇస్ వెరీ కూల్ అండ్ డిలైట్ఫుల్. హూ మేడ్ ఇట్ కూల్? సో ఇట్ ఇస్ నాట్ బై ఎనీ ఎక్స్టర్నల్ ఫోర్స్. స్వభావత యథా ఇందు శీతల ఆహ్లాదకర సంతోషదాయక భవతి ఏవమేవ స్వభావత సజ్జనా ఉపకారిణ ప్రియవాదిన స్నేహశీలాశ్చ భవంతి ఇతి సుభాషితం. అత్రాపి తుమునః ప్రయోగః ద్రష్టుం శక్యతే ఉపకర్తుం వక్తుం కర్తుం ఇత్యాది. ఏవం తుమ్ ఇతి యత్ర యత్ర శబ్దరూపే శ్రూయతే తత్ర వయం తుమున్ ప్రత్యయం జ్ఞాతుం శక్తుమః. పఠితుం లేఖితుం భవితుం హసితుం ఖాదితుం కర్తుం శ్రోతుం నేతుం దాతుం హంతుం ఇతి తుమ్ ఇతి సర్వత్ర శ్రూయతే. అత్ర సర్వత్ర తుమున్ ఇత్యేషః ప్రత్యయః భవతి. కీదృశః అయం ప్రత్యయః? సర్వేభ్యః ధాతుభ్యః భవతి. అయమపి సామాన్యః ప్రత్యయః. So it can be added to all dhatus. sumunvantaha shabdaha avyayani bhavanti. Okay, so better to know it of before. So words ending in tumun are avyayas, that is indeclinables. Ataha ekameva rupam bhavati ityataha atyantam saralam rupabhedaha na bhavati lingabhedaha vachanabhedaha kimapi nasti tumunvantaha shabdaha avyayam bhavati. Avyayam namakim prayaha bhavaha janiyahu sadrisham trishulingeshu sarvasu cha vibhaktishu vachaneshu cha sarveshu yannavyeti tadavyayam. So sarveshu lingeshu vachaneshu vibhaktishu yasya samanam rupam bhavati arthatu rupabhedaha na bhavati tat avyayam iti kathyate. Ataha tumunnantaha shabdaha avyayam bhavati. So tumun, words ending in tumun are indeclinables. Okay. Prashna astiva? Nanda Kumar Mohanay?
No, I think it got clicked automatically by mistake. Okay. Sorry.
Yeah, no problem. तर्हि कुत्र क्रियते तुमुनः प्रयोगः तुमुन् प्रत्ययान्तः विशिष्टेषु सन्दर्भेषु बोधयति क्रियामेव बोधयति सो तुमुन् इज अ प्रत्यय विच इंडिकेट्स क्रिया बट इन सर्टेन स्पेसिफिक कॉन्टेक्स्ट सो केषु केषु प्रसंगेषु तुमुन् प्रत्ययान्तस्य प्रयोगः भवति इति पश्यामः सो प्रथमः प्रसंगः एंड ओनली वन विच इज कॉमनली थॉट आई मीन इफ यू हैव स्टडीड तुमुन एनीवेयर एट स्कूल्स और एनीवेयर सो दिस इज द ओनली प्रसंग विच इज एक्चुअली थॉट क्रियार्थ क्रिया इत्युच्यते एकस्याः क्रियायाः उद्देश्येन यत्र अपरा क्रिया क्रियते. So one action is performed with the purpose of performing another action. So tatra tumunaha prayogaha. Udaharanani pashyamaha. Ekada brahmanah putraha sanakadya mahaujasaha merishrunge samajagmuhu vikshitum brahmanah sabham. Iti kashtit shlokaha kutrachit purane asti. Brahmanah putraha ekada kadachit ब्रह्मणः पुत्राः चतुर्मुख ब्रह्मणः चत्वारः मानसपुत्राः बहु श्रेष्ठाः महर्षयः सनकः सनन्दः सनन्दनः सनत्कुमारः सनत्सुजातः इति चत्वारः ब्रह्मणः मानसपुत्राः सनकाद्याः महौजसः तेजस्विनः अत्यन्त तेजस्विनः ब्रह्मणः पुत्राः मेरुशृङ्गे समाजग्मुः मेरुपर्वतस्य शिखरे आगतवन्तः किमर्थम् आगतवन्तः किम् उद्देश्यम् सो वाट् वाज़् द पर्पस् आफ् देम् कमिङ्ग् टु द मेरु मौण्टेन् सो जस्ट् इस् द सन्स् आफ् ब्रह्मन् विच् आर् सनक एण्ड् अदर्स् दे केम् टु द मेरु मौण्टेन् किमर्थम् आगताः इति चेत् ब्रह्मणः सभां वीक्षितुम् टु सी the sabha of brahman. So agamanasya prayojanam asti vikshanam brahmanah sabhayah vikshanam ataha vikshitum samajagmuh. So the purpose of samagamana is vikshana. So that which indicates the purpose of another kriya, so sa eva kriyartha kriya ityuchyate. Ataha yasya ya kriya uddeshya bhuta भवति तस्याः तुमुन् प्रत्ययः उपयुज्यते. अतः ब्रह्मणः सभां वीक्षितुं सनकाद्याः समाजग्मुः वीक्षितुम् इति तुमुन्नन्तः. अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः रावणस्य वर्णनं कुत्रचित् भवति. रावणः नदीम् अवतीर्णः. So he climbed down into the river. He entered the river. Kimartham? Kimartham saha nadim avatirnaha? Snatum avatirnaha. Snanartham. Atra avatarana kriyayaha उद्देश्यं भवति स्नानम्, अतः स्ना धातोः तुमुन्, स्नातुं नदीम् अवतीर्णः. सो हि क्लैम्ब डौन् इन् टु द रिवर् टु टेक् बात्. सो गङ्गामिव महागजः, यथा कश्चित् महागजः गङ्गानदीं प्रविशति तथा रावणः नदीं प्रविष्टः इति. सो तत्र स्नातुम् अवतीर्णः, वीक्षितुं समाजग्मुः इत्येवम् उद्देश्यभूतां क्रियां द्योतयितुं तुमुन् प्रत्ययः उपयुज्यते. अन्यानि कानिचन उदाहरणानि पश्यामः. छात्राः पठितुं विद्यालयं गच्छन्ति. छात्राः विद्यालयं गच्छन्ति, किं प्रयोजनं, किं तत्र उद्देश्यम् इति चेत् पठनमेव. सो पठनक्रिया उद्देश्यभूता तुमुन् भवति. पठितुं विद्यालयं गच्छन्ति. कर्षकः भूमिं कर्षति. सो कर्षकः फार्मर्, हि प्लोस् द अर्थ. किमर्थं, बीजानि वप्तुं, sorry, the vaptum should be colored, not bijani. So vaptum, to sow seeds. So the purpose of plowing or tilling the field is to sow seeds. Tada bijani vaptum bhumim karshati. Sa dhanam sampadayitum aabharanani vikrinati. Sa aabharanani vikrinati. She sells ornaments. Kimartham dhanam సంపాదయితుం, టు ఎర్న్ మనీ. సో సంపాదయితుం ఇది ఉద్దేశ్యం, ధన సంపాదనమేవ విక్రయణస్య ఉద్దేశ్యం. సో రామః పితృవాక్యం పరిపాలయితుం వనం గతవాన్. రామః వనం గతవాన్, కిమర్థం గతవాన్, పితృవాక్యం పరిపాలయితుం. సో పితృవాక్య పరిపాలనం వనగమనస్య ఉద్దేశ్యం. एवं यत्र क्रियार्था क्रिया अर्थात् उद्देश्यभूता क्रिया भवति तत्र वयं तुमुन् प्रत्ययान्तं प्रयुञ्ज्महे. तत्र कश्चन अभ्यासः अस्ति, किमर्थम् इति संयोजनीयं, किमर्थम् आपणं गच्छति, किमर्थं मन्दिरं गच्छति इत्यादि. ये वक्तुमिच्छन्ति कृपया हस्तम् उत्तोलयन्तु. వెంకటేశ్వరన్ మహోదయ, కిమర్థం క్రీడితు ఆపణ, క్రీడితు ఆపణే క్రీడితు శక్యతే వా? ఆపణ షాప్
షాప్
లేఖనీం క్రేతుం ఆపణం గచ్చతి.
మందిరం గచ్చతి, దేవం వందితుం మందిరం గచ్చతి.
సమ్యక్, దేవం వందితుం మందిరం గచ్చతి.
పాఠశాలాం అధ్యేతుం గచ్చతి.
అధ్యేతుం పాఠశాలాం గచ్చతి. ధన్యవాదాః. హర్మందర్ సింగ్
నమో నమః. రంగమందిరం గచ్చన్ గచ్చతి నాటకం ద్రష్టుం.
నాటకం ద్రష్టుం రంగమందిరం గచ్చతి. సో రంగమందిరం థియేటర్, స్టేజ్, ప్లేస్ వేర్ దేర్ ఇస్ ఎ స్టేజ్. సో నాటకం ద్రష్టుం రంగమందిరం గచ్చతి.
మిత్రగృహం గచ్చతి క్రీడితుం.
క్రీడితుం,
సారీ, భోక్తుం.
ఉభయం శక్యతే, అత్ర తు ఉభయం శక్యతే, కింద అగ్రిమ ప్రశ్నస్య న శక్యతే. అతః భోక్తుం మిత్రగృహం గచ్చతి. సో భోజనం కర్తుం इत्यर्थः.
क्रीडाङ्गणं गच्छति क्रीडितुम्.
क्रीडितुं क्रीडाङ्गणं गच्छति. सो टु प्ले. सो लेखनीं क्रेतुं टु बै अ पेन् हि गोस् टु द शाप्. देवं वन्दितुं टु बो डौन् टु द लार्ड् हि गोस् टु द टेम्पल्. अध्येतुं पाठशालां गच्छति. हि गोस् टु द स्कूल् टु स्टडी. नाटकं द्रष्टुं रङ्गमन्दिरं गच्छति. सो टु हि गोस् टु द थियेटर् टु सी अ प्ले. भोक्तुं मित्रगृहं गच्छति. हि गोस् टु अ फ्रेण्ड्स् हौस् टु ईट्. क्रीडितुं क्रीडाङ्गणं गच्छति. हि गोस् टु द प्ले ग्रौण्ड् टु प्ले. सो अत्र क्रयणं, वन्दनम्, अध्ययनं, दर्शनं, भोजनं, क्रीडनम् इत्येताः क्रियाः उद्देश्यभूताः. सो दे आर् द पर्पस्. दे सिग्निफै द पर्पस् आफ् पर्फार्मिङ्ग् दीस् एक्शन्स्. गोयिङ्ग् सम्वेर्. सो गमनक्रियायाः उद्देश्यं भवति एताः क्रियाः. सो क्रेतुम् इस् टु बै. क्रेतुम् इत्यस्य अर्थः कः इति प्रश्नः. टु बै. सो अग्रिमः अभ्यासः वाक्यं रचनीयम्. एकमुदाहरणं दर्शयामि. गायति धनं प्राप्नोति. तर्हि धनं प्राप्तुं गायति. धनं प्राप्तुं गायति. गायति किमर्थं गायति? धनं प्राप्तुं. धनं प्राप्तुं गायति. She sings to get or to earn money. ज्योत्स्ना भगिनि. वदति वा ज्योत्स्ना भगिनि?
आम् विद्याभ्यासं कर्तुं गुरुकुले वसति.
सम्यक्. गुरुकुले वसति. किमर्थं? विद्याभ्यासं कर्तुं. विद्याभ्यासं कर्तुं गुरुकुले वसति. सो हि स्टेज् इन् द गुरुकुल टु स्टडी टु लर्न् नालेज्. अग्रिमम्.
विश्वनाथं द्रष्टुं काशीं गच्छति.
विश्वनाथं द्रष्टुं काशीं गच्छति. सो काशीं गच्छति. किमर्थं? विश्वनाथं द्रष्टुम्. राजलक्ष्मी भगिनी.
पुष्पाणि आनीतुं पत्नीं तोषयति.
समीचीनं वा? किम् उद्देश्यम्?
पुष्पाणि आनीतुं.
पुष्पाणि आनयति.
पुष्पाणि आनीतुं सम्यक् न
वा? तत्र किम् उद्देश्यभूता क्रिया का? वाट् इस् द एक्शन् हि पर्फार्म्स् फार् वाट्? पत्नीं तोषयति.
पत्नीं तोषितुं. पत्नीं तोषितुं पुष्पाणि आनयति.
पत्नीं तोषयितुं पुष्पाणि आनयति. सो हि ब्रिङ्ग्स् फ्लावर्स् टु प्लीज् हिस् वैफ्. अतः पत्न्याः तोषणम् उद्देश्यम्. सो पत्नीं तोषयितुं पुष्पाणि आनयति.
वरं लभेतुं
लब्धुं
तपः आचरति. वरं लब्धुं तपः आचरति.
सम्यक्. वरं लब्धुं तपः आचरति. सो तपः आचरति. किमर्थं? वरं लब्धुं प्राप्तुं. सो टु गेट् आर् टु अटेन् बून् हि पर्फार्म्स् पेनन्स्. सो वरं लब्धुं तपः आचरति. सुन्दररामन् महोदय.
श्रूयते वा?
श्रूयते.
स्वास्थ्यं रक्षितुं व्यायामं करोति. स्वास्थ्यं रक्षितुं व्यायामं करोति.
सम्यक्. स्वास्थ्यं रक्षितुं व्यायामं करोति. व्यायामं करोति. हि डस् एक्ससैज़. किमर्थं? स्वास्थ्यं रक्षितुं. to protect his health. Atha swasthya rakshanam vyayama karanasya uddeshyam.
Shatrun jayetum yudhyati.
Jayetum yudhyati. Shatrun jayetum. So to conquer enemies he fights. So shatrun jayetum yudhyati. So evam kriyartha kriya yatra bhavati tatra tumunnantasya prayogaha bhavati. Okay. So this is one of the most common and frequent usages of tumun, but not the only one. Okay. So we find that especially in literature we do use tumun in many other contexts. So before we go into them, there is a small shloka here, what we call a samasya. Samskrita bhashayam samasyaha iti ketana shlokaha bhavanti. Okay. Samasya purti is a art, is a kind of art. Yatra kashchana shlokaha bhavati tat yatra arthe kachit samasya. So there is some problem in meaning, in understanding the shloka as it is. Okay. So tatra samasyayaha puranam kartavyam. So you have to solve that riddle. Okay. So they are something like a riddle. So atra kaschit shlokaha asti. Ekona vimshatihi naryaha kridam kartum vane gataha. Vimshatihi punarayata shesho vyagrena bhakshitaha. Kaha arthaha? Ekona vimshatihi naryaha. So women, how many women? 19. Okay. Ekona vimshatihi. Eka una. Okay. So ekona vimshatihi means 19. One less than 20. Okay. That is how we represent the numbers. Okay. So 19 is ekona vimshatihi. And 29 is ekona trimshat. 39 is ekona chatvarimshat. Okay. So one less than the next number. So ekona vimshatihi naryaha. So 19 women kridam kartum vane gataha. Vanam gatavantaha kimartham iti cheta kridam kartum. Kriditum ityeva arthaha. So to play, to enjoy, to karan, they went to the vana or the forest. Vimshatihi punarayata. 20 came back. Sheshaha vyagrena bhakshitaha. And the rest, whatever was left, sheshaha vyagrena bhakshitaha, was eaten by the tiger. Okay. So katham, so the number which went, so 19 people or 19 women went, 20 came back and the rest was eaten by the tiger. Katham sambhavati, iti samasya. Satra tumun prayoga hasti ityataha ayam shlokaha uchyate. Kintu iyam samasya katham parihriyate. Does anybody know? I mean, it's a pretty common samasya. Kopi vaktum shaknoti. Oh, sorry. I don't know who raised their hands now and who raised it earlier. So I'll, please raise your hands now. Yadi asyaha samasyayaha uttaram vaktum icchanti. Pancha jananti samyak. Okay. Shat, sapta. Good. Many people know it. So somebody. Yes. Aruna. Vang.
Eka something. 21 ladies went to the.
20 went. But even then it is a problem. Because when 20 came back and the rest was.
Eka. 21 people went. That's how it comes. I don't remember.
Yes, yes, correct. So some.
Eka. Eka.
Eka. Eka. Na. Right.
Okay.
Eka. Yeah. Eka. Na. Vimshatihi naryaha iti chedaha. So, yam samasya chedena puryate. So it is not ekona vimshatihi. So ekaha na. Okay. So na means naraha ityarthaha. So nr shabdaha. Na narau naraha. Iti rakarantaha pullinga shabdaha asti nr iti. So nara iti akarantaha shabdaha api asti. Na ityukte yatha pita pitru shabdaha pita iti bhavati. Evam nr shabdaha na iti bhavati. So ekaha na ityukte one man and 20 women. So we have 21. So of them 20 came back and one was eaten. So atra chedena samasya puryate. So it is one kind where the samasya is resolved by a different split. So if you read it as eko na, it is different meaning. Eko na, ekaha manushyaha, ekaha purushaha, vimshatihi naryaha. So there are other kinds of samasyas also. So astu, eko na vimshatihi naryaha. Kridam kartum vanegataha. So atra vanegataha, vanagamanasya uddeshyam bhavati krida. Ataha kridam kartum vanegataha iti prayogaha. Tadanim tumunaha dvitiyam prasangam pashyamaha. Icchati janati ityetesham prayoge ityeteihi saha tumunaha prayogaha bhavati. So that is not exactly the purpose. Okay. So the desire for a kriya or the knowledge of a kriya. Okay. Knowing something or wanting to do something. So tatra api udde vishayabhuta kriyayaha. Ichchayaha vishayaha. So what is the kriya which is desired or a kriya which is known. Okay. So that is represented through tumun. Okay. So yo yo yam yam tanum bhaktaha shraddhayarthitum icchati tasya tasya chalam shraddham tameva vidadhamyaham. Punaha Bhagavad Gita yaha ayam atyantam prasiddhaha shlokaha. Bhaktaha yaha yaha bhaktaha yam yam tanum shraddhaya architum icchati. So any devotee, so different devotees, they may want to worships, architum ichyati, want to worship. Okay. So you, I mean, there is no, it is not your purpose of, two actions with the purpose. So that is not the context. So ichyati ityasya prayoge, ichyayaha vishayaha. So what does he want to do? So tat tumunnantena dyotyate. Yo yo yam yam tanum bhaktaha shraddhaya architum ichyati. So in whatever form the devotee wants to worship, tasya tasya atalam shraddham tameva vidadhamyaham. So I will instill a shraddha towards that particular form. Okay. So devotees can attain me through various forms. So whichever form he likes to worship, so I will instill the shraddha towards that particular form. Shraddhaya architum ichyati iti. Tatra architum ityatra tumun mantasya prayogaha asti. Na ichyati ityatra api bhavati. Kartum nechyasi anmohat karishyasya vashopitat. So idam api gita vakyameva. Bhagavata uchyate mohat yat kartum na ichyasi. So that which you do not want to do because of your delusion, which is yuddha. Mohat yuddham kartum nechasi, avashaha api tat karishyasi. So you are not free to choose. I mean, even without being able to control, nishchayena tvam karishyasi. Because it is his swabhava. Swabhava vashat prakriti karanat yat kartum na ichasi, tat avashopi karishyasi. So atra kartum na ichasi. So ichchasi nechasi ubhayathapi tatra tumunnantasya prayogaha bhavati. Evam eva jnyadhatoho api bhavati. Ekam subhashitam asti. Suvarna pushpam prithivim chinvanti purushastrayaha shurascha kritavidyascha yascha janati sevitum. So prithivim, यम भूमिः सुवर्ण पुष्पा सो अत्र पुष्पाणि भवन्ति कीदृशानि सुवर्णानि अत्यन्तम् अमूल्यानि इत्यर्थः सो द अर्थ होल्ड्स मेनी ट्रेजर्स त्रयः पुरुषाः चिन्वन्ति those flowers golden flowers golden flower is a metaphor for the various treasures on the earth trayaha purushaah chinvanti three kinds of men or people are able to pluck those flowers that is to get the treasures out of earth shurascha yaha atyantam dhiraha parakrami bhavati saha krutavidyascha yaha vidwan samyak vidyam praptavan saha यश्च जानाति सेवितुम् यः सेवितुम् जानाति ही हु नोस् टु सर्व अदर्स वेल सो यू ईदर हैव द पावर टू विन कॉन्कर दोस ट्रेजर्स कृतविद्यश्च और यू हैव द नॉलेज टू गेट दैट और यू कैन सर्व समबडी वेल सो सुवर्ण पुष्पां पृथ्वीं चिन्वन्ति पुरुषास्त्रयः शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् यः सेवितुम् जानाति ही हु नोज़ टु सर्व वेल ही हु नोज़ द क्रिया ऑफ सेवन सर्विंग अदर्स प्रॉपरली उपभोक्तुम् न जानाति कदापि कृपणो जनः सो न जानाति इत्यत्रापि भवति कृपणः जनः अमैसर यः धनं व्ययीकर्तुम् न इच्छति सः उपभोक्तुं न जानाति हि डज नॉट नो हाउ टू एंजॉय बिकॉज ही इज कॉन्स्टेंटली वरीड अबाउट द एक्सपेंस एंड नॉट अबाउट द एंजॉयमेंट इटसेल्फ सो उपभोक्तुं न जानाति कदापि कृपणो जनः एवं इच्छति जानाति इत्येतयोः प्रयोगे तुमुन्नन्तस्य प्रयोगः भवति एतेषां विषयः तुमुन्नन्तेन द्योत्यते तत्र इच्छति इत्यस्ति किं कर्तुम् इच्छति इति वक्तव्यम् भास्करन् महोदय
पठितुम् इच्छति
पठितुम् इच्छति वांट्स टू रीड टू स्टडी
लेखितुम् इच्छति
लेखितुम् इच्छति
स्नातुम् इच्छति
स्नातुम् इच्छति स्नातुम् इच्छति वांट्स टू टेक बात
स्थातुम्
सम्यक् स्थातुम् इत्येव स्थातुम् इच्छति वांट्स टू स्टे ऑर टू स्टैंड सो स्थातुम् इच्छति
निद्रातुम् इच्छति
सम्यक् निद्रातुम् इच्छति
हसितुम् इच्छति
हसितुम् इच्छति वांट्स टू लाफ
वीक्षितुम् इच्छति
वीक्षितुम् इच्छति वांट्स टू सी
गमतुम् इच्छति गमितुम् इच्छति
गन्तुम् गन्तुम् इच्छति
गन्तुम् इच्छति
इच्छति वांट्स टू गो एवं पठितुम् इच्छति लेखितुम् इच्छति स्नातुम् इच्छति स्थातुम् इच्छति निद्रातुम् इच्छति हसितुम् इच्छति वीक्षितुम् इच्छति गन्तुम् इच्छति द क्वेश्चन्स् आन् आफ् कोर्स् देर् आर् डिफरेन्स् इन् फार्म्स् एण्ड् वी विल् स्टडी देम् इन् डीटेल् कुत्र इकारः गन्तुं कुत्र भवति गमितुं किमर्थं न भवति हसितुं किमर्थं हस्तुं कुतो न सो ऑब्वियसली वी विल यू नो दट वी विल कम टू दट इन द नेक्स्ट क्लास कथं भिन्नानां धातूनां रूपाणि भवन्ति इति इदानीं तु संस्कारवशात् वक्तुं शक्यते ओके सो एज यू कीप टेलिंग यू विल डिस्कवर द पैटर्न ओके सो स्नातुं स्थातुं निद्रातुं सो ऑल ऑफ देम आर क्लियर सो वी विल डू दट वी विल कम टू द डीटेल्स ऑफ हाउ वी गेट द डिफरेंट फॉर्म्स इन द नेक्स्ट क्लास ओके तो किम जानाति सो व्हाट डज ही नो Sharada Mangini, Sharada Vishwanathan. You have muted yourself. I think you have to unmute.
Sorry, sir. Shruyate Vadanim.
Shruyate, Shruyate.
Bhashitum Janati.
Bhashitum
Janati.
Yeah.
Natitum janati, gatum janati, paktum janati.
Samyak, paktum janati.
Yodhum.
Samyak, yodhum janati.
Kshiptum.
Kshiptum.
Kshiptum janati. Pujayitum. Pujayitum janati. Ganitum janati.
Ganayitum janati.
Ganayati.
Samyak. So, bhashitum, to speak. Natitum, to act. Gatum, to sing. Paktum, to cook. Yodhum, to fight. Kshetum, to throw. Pujayitum, to worship. Ganayitum, to count. So, janati. Kim janati, yada kriya. So when it is a this thing, we use it in karma pada, right? So when you use it as a bhashanam janati, natanam janati, ityapi vaktum shakyate, tumun antena. So directly it can be represented by tumun. Okay. So both even for ichchati ityatra api tathaiva. Pathanam ichchati, patitum ichchati. Okay. So it is a different way of expressing the same thing. Okay. So, Atrayekam Hasitum Yadi Ichchamaha Ekaha Shlokaha. It's a humorous verse in Samskrita. Attum Vanchati Vahanam Ganapatehe. Attum vanchati vahanam ganapatehe akum kshudhartah pani tanchakraun chapate shikhe jagirija simho pinaga nanam gauri janhusutamasu yatikala nathan kapala nalaha nirvinnastapapaukuprumba kalaha disho pihala halam. Hasyarthameva kashchit shlokaha. Attum vanchati attum atti khadati ityarthaha. Attum vanchati. Vanchati ityasya ichchati ityarthaha. Yathadrishtam tumunnantena tumunnantaha bhavati ichchati ityasya prayoge. Attum vanchati. So wants to eat. Okay. Kim vahanam ganapatehe. Ganapatehe vahanam. Kim akuhu. Akuhu nama mushikaha. So Shivasya kutumbam kathamasti iti kashchana kavihi varnayati. He tells how the Shiva's family is. So Ganapati asti tasya vahanam asti akho nama mushikaha. So tam mushikam attum khaditum ichchati kaha kshudhartaha phani. Phani nama sarpaha. Shivasya kanthe asti kila sarpaha. Shivasya kanthe tatha hastayoho. Adaha sarpaha, kshudhartaha, bubhukshitaha sarpaha, ganapatehe vahanam, mushikam, attum vanchati, khaditum ichchati. Tam chakraunchapatehe shikhi, attum vanchati. Tam nama phaninam, sarpam, khaditum ichchati. Kaha, kraunchapatehe shikhi, kraunchapatihi, shanmukhaha, subramanyaha, athava kartikeyaha, shivasya aparaha putraha, tasya vahanam bhavati mayuraha. Shikhi nama mayuraha. So mayuraha tam sarpam khaditum ichchati. Sarpaha shivasya kante vidyamanaha sarpaha ganapatehe vahanam mushikam khaditum ichchati. Kartikeyasya vahanam mayuraha tam sarpam khaditum ichchati. Girija simhaha. गिरिजा नाम पार्वती पार्वत्याः वाहनम् अस्ति सिंहः सः सिंहः नागाननम् नागाननः नाम मयूरः नागः आनने मुखे भवति अर्थात् यः सर्पं खादति मयूरः अतः सः सिंहः तं मयूरं खादितुम् इच्छति एवं परस्परं वाहनेषु एव कलहः गणपतेः वाहनं शिवस्य सर्पः खादितुम् इच्छति तं सर्पं मयूरः मयूरं सिंहः अत्तुं वाञ्छति गौरी जह्नुसुताम् असूयति शिवस्य पत्नी गौरी जह्नुसुताम् जह्नुसुता नाम गङ्गा इत्यर्थः सो गङ्गायै असूयति सो गौरी इस् जेलस् आफ् गङ्गा कलानाथं कपालानलः असूयति कलानाथः नाम चन्द्रः हरस्य शिरसि विद्यमानं चन्द्रम् असूयति कः कपालानलः तस्य हस्ते एव कपालः अस्ति कपाले अग्निः सो अग्निः चन्द्रम् असूयति यतोहि चन्द्रः शीतलः सर्वे इच्छन्ति इत्यतः कपालानलः कलानाथम् असूयति एवं कुटुम्बकलहात् निर्विण्णः सो डिजेक्टेड् बिकास् आफ् द इन्फैटिङ्ग् इन् द फेमिली सः ईशः अपि सो परमेश्वरः अपि हालाहलं पपौ हालाहलं पीतवान् शिवः हालाहलविषं पीतवान् इति सर्वे जानीमः किमर्थं विषं पीतवान् इति चेत् कश्चित् कवेः इयं कल्पना सो इस् जस्ट् अ ह्यूमरस् टेक् आन् शिवा ड्रिङ्किङ्ग् द हालाहल किमर्थं हालाहलं पीतवान् कुटुम्बकलहात् because dejected or depressed because of this infighting among his family ishaha halahalam papau iti shlokah tatra attum vanchati so khaditum icchati ityarthah asmin arthe tumunah prayogah bahudha drishyate okay ayam dvitiyah prasangah tumunah prathamah kriyartha kriya so the uddeshya or the purpose of one kriya is the kriya which is the purpose of another kriya is expressed in tumun the object of desire or knowledge which is a kriya so one kriya which is known or which is desired is expressed in tumun so icchati janati ityetay bhyam yoge anya kriya vishayabhutaya kriya tasya ha tumun pratyayah bhavati okay तृतीयः प्रसङ्गः शक्नोति अथवा अर्हति सो शक्नोति द केपासिटि आफ् पर्फार्मिङ्ग् संथिङ्ग् आर् द संथिङ्ग् दट् नीड्स् टु बि डन् ओके सो तस्मिन् अर्थे अपि तुमुन्नन्तस्य प्रयोगः भवति सो एस्पेशलि तुमुन् वित् शक्नोति इस् वेरि वेरि कामन् अक्रास् लिट्रेचर् सो एक्चुलि इफ् यु लुक् थ्रू लिट्रेचर् इच्छति जानाति शक्नोति दे आर् मोर् कामन् देन् यु नो द फस्ट् यूसेज् इन् क्लासिकल् लिटरेचर् सो पुनः भगवद्गीता भगवद्गीतायां बहुधा प्रयोगाः लभ्यन्ते शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् कामक्रोधोद्भवं वेगं सयुक्तः स सुखी नरः इति गीतायां भगवता उच्यते यः प्राक् शरीरविमोक्षणात् शरीरविमोक्षणात् प्राक् दट् इस् बिफोर् लीविङ्ग् दिस् बाडी दट् इस् एस् ही इस् अलैव् इहैव अत्रैव अस्मिन् अस्यां भूमौ एव जीवने जीवन् एव सोढुं शक्नोति ही हू इस् केपबल् आफ् टालरेटिङ्ग् सोढुं शक्नोति किं सोढुं कामक्रोधोद्भवं वेगं सो द force of kama and krodha so desire and anger so he is able to tolerate the force that is control the force of kama and krodha when he is alive that is when he is living sayuktah he is a yogi sa sukhi and he is happy so only he can be happy only he can be a yogin who can control the force of kama and krodha who can tolerate their vega that is who is not blown away by the vega of kama and krodha. So, sodhum shaknoti sahate iti dhatuhu. Sahate is sahamarshane, tolerate. So, sodhum shaknoti capable of tolerating ityartha. So, sodhum ityatra tumun asti. Atachittam samadhatum na shaknoshi maisthiram. Abhyasa yogena tato mamichhaptum dhananjaya. So tatrapi asti. Abhyasa yogena tato mamichhaptum dhananjaya. So samadhatum na shaknoshi. So bhakti yoge ayam shlokaha asti. So chittam samadhatum na shaknoshi. If you are not able to calm your mind. Samadhana is to calm. So, if you are not able to calm your mind, samadhatum na shaknoshi. Mai sthiram samadhatum. So, be able to quieten it or fix it in me. Tataha abhyasa yogena. So, by constant practice, mam aptum iccha. So, here you see, icchati ityanena yoge. Aptum iccha. Desire to attain me. So, aptum iccha samadhatum na shaknoshi. So, atha chittam samadhatum na shaknoshi maisthiram. Abhyasa yogena tato mamichhaptum dhananjaya. Excuse me, just one moment. I'll be back. Evam shaknoti ityanena yoge tumunnantaha drashtaha tam santa shrotum arhanti sadasad vyakti hetavaha. Kalidasaha raghuvamshe kathayati raghunam anvayam vakshye aham raghunam raghuvamsham raghuvamshasya charitam kathayami tam santaha shrotum arhanti. So santaha shrotum arhanti. So, please listen ityartheva. So, the arhati here, arhati generally means they deserve, okay, fit to be listened. So, here, shrotum arhanti. So, they should listen or they, it will be good for them to listen. Okay. So, tam santa shrotum arhanti sadasad vyakti hetavaha. So, kidrishaha santaha. Sat asat vyakti hetavaha, those who are capable of distinguishing between what is good and what is not. So let them listen to this and decide whether this is good or not. Ityarthe kalidasena prayujyate shrotum arhanti. Evam bahushu tada granteshu, there are many manuscripts. So at the end of manuscripts bahudha taihi lekhakaihi, the scribes, they would have written this line. Karakritam aparadham kshantum arhanti santaha. So, karakritam aparadham. Lekhane yeye doshaha bhavanti. Tam dosham santaha sajjanaha kshantum arhanti. So, please forgive ityarthe. Alright. So, kshantum arhanti. So, let them forgive these mistakes. So, tadapatrasya lekhane doshaha bhavantyeva. Kshantum arhanti santaha. Kshantum arhanti. So, evam shaknoti arhati ityetaihi prayoge api tumunnantasya prayogaha kriyate. So, idani prashnaha santi. Shaknoti utanna iti vaktavyam. I mean, simple kriya. Samskritena sambhashanam ityasti. Vakyam vaktavyam. Samskritena sambhashitum shaknomi. Athavana shaknomi. Upayathapi. I mean, there is no this thing of thing to know. Padmanabhan Mahode.
Samskrita sambhashanam. Uh, न शक्नोमि
न शक्नोमि शक्नोति किल संस्कृतेनैव वदति संस्कृतेन सम्भाषितुं तुमुन्नन्तस्य प्रयोगः कर्तव्यः मया ल्युडन्ते दीयते
संस्कृतेन सम्भाषितुं न शक्नोमि
संस्कृतेन सम्भाषितुं अस्तु वदतु अग्रे
गातुं च न शक्नोमि
गातुं न शक्नोमि गातुं शक्नोमि
नर्तितुं शक्नोमि न शक्नोमि
नर्तितुं शक्नोमि अथवा न शक्नोमि धन्यवादः श्रीधर महोदय
नमस्ते पक्तुं शक्नोमि
पक्तुं शक्नोमि
पक्तुं न
एकं वदतु भवान् शक्नोति वा न वा वदतु मया तु उभयं दीयते
क्रिकेट् क्रीडितुं शक्नोमि
क्रिकेट् क्रीडितुं शक्नोमि
पाठम् अवगन्तुं शक्नोमि
सम्यक् धन्यवादः पाठम् अवगन्तुं शक्नोमि सो ऐ एम् एबल् टु अण्डर्स्टाण्ड् द लेसन् सो पाठम् अवगन्तुं शक्नोमि सो शक्नोमि इत्यनेन योगे सम्भाषितुं शक्नोमि गातुं शक्नोमि पक्तुं शक्नोमि इत्येवं सामर्थ्यं बोधयितुं तुमुन्नन्तस्य प्रयोगः क्रियते सो एतावता क्रियापदैः सह सीन् आल्वेज् इन् आल् दीस् केसेस् तुमुन् वास् असोसियेटेड् वित् अ क्रिया ओके सो द पर्पस् आफ् वन् क्रिया आर् वित् इच्छति जानाति शक्नोति अर्हति एवं क्रियाभिः सम्बन्धे क्रियाणां सम्बन्धे तुमुन्नन्तस्य प्रयोगः दृष्टः अन्याः अपि क्रियाः सन्ति सो दिस् इस् नाट् काम्प्रहेन्सिव् देर् आर् आल्सो सम् अदर् क्रियास् वेर् वि डू यूस् तुमुन् से फार् एक्साम्पल् टु बिगिन् सम्थिङ्ग् से आरभते गातुम् आरभते सो हि स्टार्ट् सिङ्गिङ्ग् भोक्तुम् आरभते सो हि स्टार्ट् ईटिङ्ग् सो तत्रापि तुमुनः प्रयोगः भवति एण्ड् अदर् धातूस् विच् कन्वे सिमिलर् मीनिङ्ग्स् टु दीस् शक्नोति इच्छति जानाति सो तत्र सर्वत्रापि सो मेन्लि द मेण्टल् यु नो एक्शन्स् विच् हाव् अ क्रिया एस् देर् विषय ओके सो इन् आल् दोस् केसेस् वि यूस् तुमुन् इदानीं कैश्चित् नामपदैः सह तुमुनः प्रयोगः भवति वित् सम् नौन्स् आल्सो वि यूस् तुमुन् सो प्रथमः तादृशः प्रसङ्गः अस्ति समर्थः अथवा निपुणः विच् इस् सिमिलर् टु यु नो द शक्ति द केपासिटि इट् कन्वेस् केपासिटि बट् एज़् अ नौन् ही हू इस् केपबल् or he who is an expert nipunaha patuho kushalaha so sarve shabdaha all words which mean this so taihi saha tumunnantasya prayogah bhavati udaharanani pashyamaha vidhurapi vidhuyo vidhiyogat grasyate rahunasau likhitamapi lalate prodhitum kas samarthah vidhuhu nama chandraha चन्द्रः विधियोगात् विधिवशात् ड्यू टु फेट् चन्द्रः अपि राहुना ग्रस्यते खाद्यते इत्यर्थः सो इवन् चन्द्र इस् स्वालोड् सो चन्द्र इस् अ डिवैन् बीङ्ग् किन्तु सः अपि विधिवशात् ड्यू टु फेट् हि इस् स्वालोड् बै राहु सो ललाटे लिखितं दट् विच् इस् रिटन् इन् द फोर्हेड् दट् इस् फेट् So it is our belief that, you know, our fate is written. Lalata likhita rekha ityat. Iti vadamaha. So likhitam lalate prodhitum kaha samarthaha. Who is capable of erasing it or overcoming it? Prodhitum. Ujjati is to tyajati ityartha. Prodhati. Ataha nivarayati. So lalate likhitam nivarayitum kaha samarthaha. Iti prashnaha. So it is just some shloka. So prodhitum samarthaha. So capable of overcoming. What is written in the lalata? So likhitam api lalate prodhitum kaha samarthaha. Saundarya lahariyaha kashchit shlokaha. Shlokasya arthaha. Bhayatratum datum phalam api cha vancha samadhikam sharanye lokanam tavahi charanaveva nipunau. Iti bhagavatyaha prarthana kriyate. Lokanam sharanye. Atava sharanye. She who is the refuge for all the worlds. Bhayatratum. To protect from fear. Trana is protecting. Trayate. So, bhayat tratum, rakshitum, ityarthaha. Bhayat tratum, phalam datum, and also to give fruits or desires, vancha samadhikam, more than what we want, to grant boons more than what is desired. Bhayat tratum, vancha samadhikam, phalam cha datum, he sharanye, tavahi charanaveva nipunau. Only your feet are capable. Nipunau. Nipuna is somebody who is an expert who can do it very well. So, kau nipunau. What is an expert in doing both? To protect from fear and also to grant boons. Tavahi charanaveva nipunau. So, tratum datum nipunau. So, bhayat tratum phalam datum cha tava charanaveva nipunau. So, samarthaha, nipunaha. So, that which says that somebody is very good at it. Okay, it's not just, say, samartha does not convey that he is somehow capable of doing it. So, he says, he who is an expert. So, similarly, nipunau. Iti tatra bhavati. So, jagat kartum kshamaha krishnaha, tatha palayitum kshamaha. Kshamaha ityasya api sayeva arthaha, samarthaha, nipunaha ityeva arthaha. Krishnaha jagat kartum kshamaha. So, he is capable of creating the world. Tatha palayitum kshamaha. So, he is also capable of taking care of it. So, jagat kartum kshamaha krishnaha, tatha palayitum kshamaha. So both for creating and taking care and also to destroy. So tadapi agrime asti tatra tumunnantaha nasti ityataha noktam. So jagat kartum kshamaha palayitum kshamaha. Okay, so which shows the expertise or the the facility in doing something. So tatrapi tumunaha prayogaha bhavati. Okay. And the last case that we are seeing, kalaha, athava samayaha, vela, avasaraha, ityetesham prayoge. So the time to do something. So the correct, the proper time, ityarthe, I am tatrapi tumunaha prayogaha bhavati. So with these words, kalaha or samayaha or vela. Kalohyayam sankramitum dvitiyam sarvopakara kshamamashramam te. So, idam api kalidasasya raghuvamshe dilipaha raghum vadati athava raghuhu ajam vadati. One of those. Either dilipa telling raghu or raghu telling his son ajam. Ayam kalaha. This is the time dvitiyam ashramam sankramitum for you to enter the second ashrama. So, we have the brahmacharya, garhasthya, vanaprastha and sannyasa, chatvaraha ashramaha. Tatra dvitiyam ashramam sankramitum. So to enter the second ashrama, ayam kalaha. So this is the time for you to get married. Ityarthe prayogaha. Kidrisham ashramam sarvopakarakshamam. So that ashrama which is capable of helping everybody. Okay, so it is only the grihastha ashrama, the grihasthas who take care of all other ashramas. So the you know, the brahmacharis or the sannyasins are all taken care of by the grihasthas. Ataha sarvopakarakshamam ashramam sankramitum. So to enter the second ashrama which is upakaraka for everybody, ayam kalaha. So atra sankramitum ayam kalaha. So this is the time, this is the right time to enter this second ashrama. So sankramitum ayam kalaha, sankramitum kalaha. Nayam kalaha vilambitum. So this is not the time to delay. So vilambitum kalaha na. So you have to take a decision quickly. Ityarthe nayam kalaha vilambitum. So vilambitum kalaha. Asitum samaya esha navayoho moha mittham avalambitum nacha. So this is from this Sitayaha apaharananantaram Lakshmanaha ramam vadati. So this is not from the Valmiki Ramayana. So some other retelling of the Ramayana. So Lakshmanaha vadati eshaha avayoho asitum samayaha na. Asitum aste is to sit, upavishati ityarthaha. Ataha tushnim upaveshtum samayaha na. So this is not the time to sit without doing something. Asitum samaya esha navayoho moham ittham avalambitum nacha. Ittham moham avalambitum api samayaha na. So this is also not the time to be dejected, to be deluded by sorrow. So eshaha samayaha avayoho asitum na. So this is not the time for us to sit without action, nor is it the time to rely on moha, that is dejection, on sorrow. So moham avalambitum samayaha na, asitum samayaha na. So this is not the time for it. Ityarthaha. Okay. So evam kalaha samayaha ityadishu ityadinam yoge tumunaha prayogaha bhavati. Okay. So antimaha abhyasaha. So it is just satra samayaha diyate kim kartum saha samayaha bhavatah dinacharyam. So according to your daily schedule kidrashaha samayaha iti tumunnantena vaktavyam. Maithili bhagini
prataha panchavadanam utthatum samayaha.
Prataha panchavadanam utthatum samayaha. So that is the time to get up.
Prataha shadvadanam snatum samayaha.
Okay. So snatum samayaha. So the time to take bath.
Prataha saptavadanam pujayitum samayaha.
Pujayitum samayaha. Samyak. So it is the time for worship. So patrikam patitum, it could be anything. Okay, I mean depending on this. So patrikam patitum samayaha, the time to read newspaper.
Prataha ashtavadanam alpaharam khaditum samayaha.
Alpaharam khaditum samayaha bhavitum arhati. Samyak. So mama dinacharyam to paktum samayaha, the time to cook, to cook before eating.
Prataha navavadanam karyalayam gantum samayaha.
Samyak. Karyalayam gantum samayaha.
Madhyane ekavadanam bhojanam kartum
samayaha. Bhoktum samayaha. Samyak. Dhanyavadaha. So evam samayaha atraiva kalaha or any other words which mean it can be used. Okay. So, adyatana pathaha atra savampyate. So, asmat pathat etan amshan bhavantaha martum arhanti. So, remember these points about today's lesson. Okay. Ke amshaha tumun iti pratyayaha prayoge tum iti shruyate. So, keshu keshu prasangeshu upayujyate kriyartha kriya. So, the purpose of an action. So, one action being the purpose of another action. Pathitum gachati ityadishu prayogaha bhavati. Ichchati janati ityadinam vishayaha yatra kriya bhavati. Tatrapi tumun upayujyate samskritam pathitum ichchati. Samskritam patitum janati ityadi. So shaknoti atava arhati ityetesham prayoge tumun bhavati. Etat karyam kartum shaknoti. So etadrishanam kriyanam vishaye api tumun upayujyate. Kaishchit namapadaihi saha tumunaha prayogaha bhavati. Samarthaha nipunaha kshamaha patuhu ityadi. Asman rakshitum samarthaha. Bhagavan eva asman rakshitum samarthaha. Ityadi. Rakshitum samarthaha. Nipunaha. Ityadi. Kalaha samayaha. So I am patam samapayitum. I am samayaha. So the time to end the lesson. Ityadi. So these are the contexts in which tumun is used. Agrima pathe tumunnantasya rupani katham bhavanti. Etattu uktam, tumunnantam avyayam bhavati. Ataha ekameva rupam nyatavyam. Linga bhedaha nasti, vachana bhedaha nasti. Kintu kesham dhatunam kim rupam bhavati tumunnantasya. Iti. Vayam agrima varge nyatum shaknumaha. So, ante ekam shlokam pathamaha. Vairagya Shatakam, Bhartrharehe Shatakatrayam Prasiddhamasti, kila? Niti Shatakam, Shringara Shatakam, Vairagya Shatakam iti Shatakatrayam, Subhashitani, Bahu Uttamani, Bahuni Subhashitani Santi, Eteshu Granthesha, Tatra Kaschit Shlokaha. Eko Ragishu Rajate, Priyatama Dehardhadhari Haro, Nirageshu Jano, Vimuktalalana, Sangona, Yasmat Paraha. Durvara smarabana pannaga visha vyavidha mugdho janaha shesha kama vidambitan na vishayan bhoktum na moktum kshamaha. Savadati haraha nama shivaha eko ragishu rajate ragi raginaha nama ye atyantam anuragavantaha. So among lovers, those who know how to exhibit love, ekaha rajate, so the best, only one is outshines everybody. Kaha priyatama dehardhadhari haraha. He who has so much anuraga for her that he has taken half the body of his beloved. Priyatama dehardhadhari ardhanarishvarasya rupena priyayaha ardham dehameva yaha dharati tadrishaha haraha ragishu rajate evam anuragishu saeva varaha. Nirageshu janaha. So nirageshu, viragishu, ye viraktaha, vimuktalalana sangaha. Teshvapi yasmat parahanasti. And there is nobody who is a greater virakta than Shiva himself. So ragishu api saeva atyantam uttamaha. So when he has raga, he has that to such a perfect extent. But when it is viraga, he also shows that to the perfect extent. Okay. Tavat ragishu evam viragishu nirageshu ubhayathapi sayeva atyuttamaha haraha. Anye janaha kidrishaha bhoktum na moktum kshamaha bhoktum api nakshamaha vishayan bhoktum nakshamaha moktum api nakshamaha. So they can neither enjoy well nor then can they leave it well. So, neither do they enjoy it to such perfection, nor do they have the viraga vairagya or relinquishing vishayan iti maha kidushah sheshah janah all others other than hara kama vidambitat because of the effect of kama because they are struggling under the effect of kama shiva has overcome the effect of kama when he is viragi he cannot be shaken even by kama atayeva sheshah kama vidambitat So, Durvara Smarabana Pannaga Visha Vyavidha Mugdha Durvaraha, that which cannot be fought, Smaraha Nama Kamaha, Manmathaha, Tasya Banaha, Sharaha, Sayeva Pannagaha Sarpaha. So, the serpent-like arrows of Manmatha. Tasya Vishena Vyavidha. So, pierced by the poison of the arrows of Manmatha, Sheshaha Janaha. All other people, Vishayan bhoktum na moktum kshamaha. They can neither enjoy, they are neither good at enjoying nor good at renouncing. Kshamaha is capable. So they act as desire makes them act or as kama makes them act. They do not have the control. Right? So they are neither capable of enjoying nor capable of renouncing. Bhoktum Namoktum Kshamaha Ityatra Samarthaha Ityarthe Kshama Shabdaha Ataha Tena Yoge Tumunnantaha Asti So Anena Ayam Adyatanam Patham Samapayamaha Prashnaha Santichet Prachantu So if you have any questions, please ask. So there were a few questions earlier, so I'll try to answer them now. Okay. Janati ityasya tumunnantaha jnatum iti bhavati. So there is a question. Kartrivachakaha karmavachakaha asya kaha arthaha iti. So what is the meaning of the word kartrivachaka? So any pratyaya which conveys the karta. For example, pachakaha. So the null pratyaya there conveys the karta. The doer of pachi. Okay. So tatra saha kartrivachakaha pratyayaha. Whereas pachaniyam, so kim tandulaha pachaniyaha. So there the pachaniya is something which has to be cooked, which is the object, the karma of cooking and not the agent of cooking. So that we call the karma vachaka. Yaha pratyaha kartaram bodhayati saha kartrivachakaha. Yaha karma bodhayati saha karma vachakaha. Okay. So those who have questions, please raise your hands if you have a question. So Maithili.
Yeah, thank you. I had a doubt in the exercise for a nil.
Yes.
Person, and I have emailed that doubt to you.
Oh, okay, fine. So I mean, if it is something which could help anybody, you can ask. I mean, everybody because
there one of the examples was Madhya Payakan Chalakan Dandayati. Arakshakaha Madhya Payakan Chalakan Dandayati. In that, a Madhya Payakan takes on the form of a visheshan. Madhya Payakaha Chalakaha Madhya Payakan Chalakan. So my doubt was whether that kind of use is possible for all the Nuli Pratyaya words. Like Venu Vadakasya Krishnasya.
Yes, yes, certainly. If you want to specify who is that, see, this is only telling a karta. So Pachakaha Bhimaha. So Pachakam Bhimam Pashya. Sarvasyapi Bhavati.
Okay, so if that noun form becomes an adjective, if you want to say he is doing Two things. You ascribe two things to the same person.
Yes, Kriya is a Visheshana. So you want to describe somebody. See, an adjective, you should remember that there is no distinction between noun and adjective in Sanskrit. I mean, all adjectives are also nouns. So if you say Unnataha, it is a noun. So noun, it's a different grammatical category. So what we call is a Visheshana. A Visheshana is something which describes. So something qualifies. So the qualification can be a guna, can be a kriya. So here in this case, it is a kriya which is used to qualify. So it can be a Vishesha.
It is a noun. Madhya Payakaha is a noun.
That is what I am saying. See, there is no, all adjectives are nouns. Right? Unnataha Balakaha. Unnata is a noun. What is it?
Okay.
So what they say is all adjectives in Sanskrita are nouns. So you don't have that distinction between. They are all namapadas. So what kind of an adjective? So.
Thank you.
Okay. Rav Mahodaya.
Yes. You know, this is not directly related to the, you know, to the Krudantas, but when you open the class, by the way, can you hear me?
Yes. Vadatu.
Okay. Yonta pravishya mamavacha mimam prasuptam sanjeevateti sanjeevetyakila sikti thara swadhamna. What is swadhamna? I tried to look in the dictionary and every place I couldn't. Swa is self, and what is the thamna? Is it
Dhamma is either power or luster. The power or, you know, his prabha. So in this case, it is his power. So Swadhamna, his power, he sanjeevayati, he enlivens everything.
Wakes it up.
Yes.
But Dhamma is like Swargathamam. Dhamma means it's a place, abode, right?
No. Vinnaha arthaha santi. So Dhamman shabdasya. Sahasradhama. Dhamma sahasradhamnaha. So Sahasradhaman is Surya. There Sadhama means the rays. So the rays of light. So tasmin arthayapi asti. Shaktihi arthayapi asti. Bahavaha arthaha santi tasya shabda.
Atra Sadhamna.
Swasya shaktya iti arthaha.
Swasyaktya.
Yeah.
It's by his own, powers.
Yes.
Okay. Because I understood the sloka, I did the padachyada, and but here I did not come across this.
Yeah.
I'm not. Thank you very much.
Yeah. Venkataraman Iyer Mahodaya. Sharada Gopalan Bhagini.
Labdha toho labdhum iti katam parivartanam bhavati.
Agrimavarge. Tadeva karyam agrimavarge. Pataniyam. Katam bhavati. We'll see how different dhatus take on different forms. So to remember that the first three pratyayas, the ana, aniya, aka, they were easier because they all start with the, you know, vowel, that is the akara. So there is no sandhi. But as soon as you bring tumun, one thing is the idagama. Where do you get e, where do you don't get e? That is one thing to be determined. Second, when there is no E, you have to do the hal sandhi. So you have the dhatu and you have the pratyaya. So both of them are consonants. So there is the possibility of a sandhi. So because of that, there will be variation in form. So agrima varge pashyamaha katham bhavati. Sharada Vishwanathan.
It is not directly related to the Kudanta, but भवती एक श्लोकम् उक्तवती शिवस्य विषये हास्यक्रम श्लोकम् श्लोकः तत्र जन्म सुताम् असूयति इति तत्र असूया चतुर्थी विभक्ति मध्ये सामान्यतया
सत्यम् सूत्रानुगुणं चतुर्थी विभक्तौ प्रयोगः भवेत् अत्र द्वितीया प्रयुक्ता डिफिकल्ट् टु डिफेंड अकॉर्डिंग टु पाणिनि श्लोके अस्ति द्रष्टव्यं मयापि चिन्तितम् सो व्हेन आई वाज typing the shloka, I thought I should look up if it is possible. Samanyataha na bhavati. Asuyati ityanena yoge chaturthyaha eva prayogaha bhavet. Kadachita arsha prayogaha bhavanti. I mean, arsha ityapi vaktum na shakyate pramadikaha prayogaha bhavanti.
Samanyataha dvitiya bhavitum arhati va.
न अर्हति चतुर्थी विशिष्य विहितत्वात् कृतद्रुहेर्ष्य असूयार्थानाम् इति सूत्रमस्ति अतः रुक्मिण्यै असूयति इत्यादि एव शुद्धम्
अस्तु भगिनि
राव महोदय
या जस्ट व्हाट इज द डिफरेंस बिटवीन विक्रेतुम एंड विक्रयितुम
देयर इज नो विक्रयितुम एंड विक्रेतुम इज द फॉर्म विक्रेतुम इज टू सेल
सो देयर इज नो विक्रयितुम
नो
आई थॉट मे बी आई मिसहर्ड ओके
ओके विक्रेतुम इत्येव
ओके ओके थैंक यू गुड नाइट
अस्तु तर्हि अत्र समापयामः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मिनमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो धन्यवादाः